संस्कृतानुरागिणः प्रियाः श्रोतारः नमस्कारः। संस्कृतसाप्ताहिकी इत्येतस्मिन् कार्यक्रमे भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। अहं ऋचा झा, कार्यक्रमस्योद्घोषिका, उपस्थिता अस्मि नूतनम् अङ्कम् आदाय। आगच्छन्तु सर्वप्रथमं शृण्मः दीपक सोलंकी इत्यनेन प्रस्तुतम् अद्यतनं सुभाषितम्।
यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रिया, चित्ते वाचि क्रियायाञ्च साधुनामेक रूपता। अर्थात सज्जन व्यक्ति वही बोलते हैं जो उनके मन में होता है, और जो उनके मन में होता है वही उनकी क्रिया में भी होता है। अर्थात ऐसे सज्जन व्यक्ति के मन, वचन एवं क्रिया में एक रूपता होती है।
अहो सुंदरम। प्रिय मित्राणि, अग्रेसरामः सम्प्रति प्रसंग प्रभागं प्रति, यत्र सुमधुर स्वरेण गायति अस्मदीयः सहयोगी जतिन शर्मा।
प्रचण्डं प्रक्रीष्टं प्रगल्भं परेशम् अखण्डम् अजं भानुकोटि प्रकाशम् त्रयः शूलनिर्मूलनं शूलपाणिं भजेहं भवानीपतिं भावगम्यं कलातीतकल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी चिदानन्द सन्दोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी न यावत् उमानात् पादारविन्दम् भजन्ति हलोके परे वानराणां न तावत् सुखं शान्ति सन्तापनाशम् प्रसीद प्रभो सर्वभूताधिवासम् प्रसीद प्रभो सर्वभूताधिवासम्।
कर्णप्रिया वाणी। अयि सम्मान्याः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति अस्मदीया सहयोगिनी मुदिता वेतालः।
संसदः एषमः प्रावृत्त सत्रं पूर्णताङ्गतम्। अस्मिन् सत्रे चतुर्दश विधेयकानि प्रस्तुतानि, द्वादश विधेयकानि पारितानि। भारतीय अन्तरिक्ष अनुसन्धान संघटनम् इसरो इत्यस्य अध्यक्षः वी नारायणनः अवोचत् यत् भारतस्य प्रथम मानव अन्तरिक्ष अभियानस्य गगनयानस्य प्रथमं परीक्षण प्रक्षेपणम् अस्मिन् वर्षे दिसम्बर मासे भविष्यति। राजधान्यां नवदिल्ल्यां तेनोक्तं यत् गगन अभियानं समुचित प्रगतौ वर्तते। जम्मू कश्मीरे त्रिदिवसीयः प्रथमः खेलो इंडिया जल क्रीडा महोत्सवः गुरुवासरात् शनिवासरं यावत् आयोजितः। एतत् आयोजनं जम्मू कश्मीरस्य संस्कृतेः परिस्थितेः च उत्सव रूपेण दृष्टम्। आयोजने पञ्चशताधिकैः क्रीडकैः प्रतिभागिता कृता। बीसीसीआई इत्यनेन विंशति प्रतिविंशतिः एशिया कप क्रिकेट स्पर्धायै अथ च महिलानां विश्व चषक क्रिकेट स्पर्धायै भारतीय क्रिकेट दलयोः घोषणा कृता। धन्यवादः।
अयि श्रोतारः, साप्ताहिकी वार्तानन्तरं पुनः उपस्थिताहं ज्ञान विज्ञान प्रभागान्तर्गतम् एकं साक्षात्कारम् आदाय। अस्माभिः साकं संवादाय उपस्थितो अस्ति अस्माकं सहयोगिन्या निधि झा इत्यनया सह लोकसभा सांसदः प्रताप चन्द्र षडङ्गी वर्यः।
सुहृदः, विदितचरमेव हि भवताम्, सताम् हि सङ्गः सकलम् प्रसूते। अतः आगच्छन्तु ज्ञान विज्ञान निदर्शिन्यां प्रभागे, अत्र महाजनानां प्रत्यक्ष वचनम् अवधारयामः। अद्यास्माकं सन्निधौ वे विद्यन्ते सात्विकतायाः सरलतायाः प्रतिमूर्तिः मनस्वी तेजस्वी ओजस्वी वर्चस्वी च लोकसभायाः लोकप्रियः सांसदः श्री प्रताप चंद्रः षडंगी एते अहर्निशं सुरभारतीं सेवमानाः विविद्यन्ते। महोदयाः, भवताम् आकाशवाण्याः संस्कृत साप्ताहिक्याः प्रभागे इयमहं निधिझाः स्वागतं व्याहरामि।
नमस्कार।
अत्र तावत् प्रथमः प्रश्नः, लोकसभायां प्रजा संसदि संस्कृत सम्भाषणं कारं कारं को अनुभवः भवतां मनसि प्रफुल्लितः? अन्य गौरवान्वित सांसद्भिः का प्रतिक्रिया च प्रदत्ता?
वास्तविकतया लोकसभायां यदा केन्द्रीयसंस्कृतविश्वविद्यालयविषये चर्चा अभवत् तस्मिन् समये अहं संस्कृतभाषया वक्तव्यं दत्तवान्। यदा कुत्रापि संस्कृतविषयकचर्चा भवति, कोऽपि विद्यालये भवतु अथवा महाविद्यालये विश्वविद्यालये अथवा जनसभायाम्, अहं संस्कृतेन वक्तुं प्रयासं करोमि। किमर्थम्? अतः आङ्ग्लभाषाविषयकचर्चा आङ्ग्लभाषामाध्यमेन भवति, अतः संस्कृतभाषाविषयकचर्चा किमर्थं संस्कृतभाषया न भवति? अतः संस्कृतविश्वविद्यालयविषये अहं संस्कृतेन कथितवान्। वास्तविकतया संस्कृतभाषा केवल एक भाषा न भवति, एक महाशक्ति, अस्माकं राष्ट्रस्य आत्मा वयं कथितुं पारयामः। यदा संस्कृतेन अहं वदामि, मम मनसि आत्मविश्वासवर्धनं भवति। पुनः मम अनेक आग्रहमस्ति। भारतवर्षे अहं दृष्टवान् कतिचित् अध्यापकाः विद्वांसः अपि संस्कृतेन सर्वोच्च उपाधि प्राप्य संस्कृतेन न वदन्ति। संस्कृतसभायां ते आङ्ग्लभाषया अथवा हिन्दीभाषया उडियाभाषया वदन्ति। ते कथयन्ति, भवन्तः सर्वे संस्कृतं सम्यक् रूपेण बोधितुं न पारयन्ति, अतः अहम् उडियाभाषया कथयामि। ते कदाचित् न कथयन्ति, अनभ्यासात् अहं संस्कृतभाषया घण्टाद्वयं निरर्गलं वक्तुं न पारयामि। ते कथयन्ति, भवन्तः सर्वे मूर्खाः, भवन्तः कृते दयां कृत्वा अहं भिन्नभाषया कथयामि। परन्तु जनः चिन्तयति, यदि प्रताप षडङ्गी बत् मूर्खः अपि संस्कृतविषये कोऽपि उपाधि नास्ति तथापि संस्कृतेन वक्तुं पारयति, तर्हि संस्कृत एक कथनयोग्यभाषा। अन्यथा तेषां मनसि विचारमस्ति संस्कृत एक वन्दनीयभाषा, पूजनीयभाषा, देववाणी, परन्तु कथितभाषा न भवितुं पारयति। अतः जनानामपि आत्मविश्वासवर्धनं भविष्यति, ते अपि संस्कृतेन वक्तुम् आग्रही भविष्यति। तदर्थम् अहं संस्कृतभाषया कथयामि। यदा संस्कृतेन वदामि, मम मनसि आनन्दः आगच्छति। संस्कृतत आनन्दसागर भवति। पुनः कतिपय सांसदाः अपि आगत्य मत्कृते अभिनन्दनमपि दत्तवन्तः। संस्कृतो भारते गौरवस्य विषयः भवति इति स्वामी विवेकानन्दः कथयति। परन्तु अहं न तु संस्कृते विद्वान्, न तु संस्कृते निरर्गलं कथनार्थं मम पार्श्वे सुयोगम् अस्ति। अतः अहं संस्कृत विद्वांसः न भवामि, परन्तु संस्कृत प्रति मम मनसि आन्तरिकश्रद्धा अस्ति।
धन्यं भारतवर्षम्। भवतां दृष्ट्या राष्ट्रनिर्माणे गीर्वाण्याः किं योगदानम्? किमेषा केवलं प्राचीनभाषा अथवा भविष्यस्य पथ प्रदर्शिका?
संस्कृतभाषा वास्तविकतया एका महाचेतनायाः आधारः भवति। अस्माकं राष्ट्र इत्युक्ते किम्? आधुनिकराजनीतिविज्ञानविशारदाः कथयन्ति, राष्ट्रस्य चतुर्विध घटकाः सन्ति। एक भूखण्ड अर्थात् टेरिटरि, जनसमष्टि पापुलेशन्, सर्वकार गवर्नमेण्ट्, सार्वभौमत्वम् अर्थात् सवरेण्टि। परन्तु सामान्यचिन्तनया एतस्य तर्कस्य असारता सिद्धा भवति। किं मोगल् आफ्गान इङ्ग्रेज् शासनसमये अस्माकं राष्ट्रं न अभवत् वा? अस्माकं राष्ट्र अत्यन्त प्राचीन, सर्वाधिक प्राचीनम् अस्ति। वेदाः कथयन्ति, वयं राष्ट्रबलम् ऊजश्च जातम्। अस्माकं शास्त्रं वदति, वयं राष्ट्रे जागृयाम पुरोहितः। अस्माकं राष्ट्र सृष्टिवत् प्राचीन भवति। यदा समग्रे विश्वे कुत्रापि सभ्यतायाः उन्मेष न अभवत्, यूरोप अमेरिका देशे जनाः कदाचित् खाद्याभावेन नरमांसमपि भोजनं कृतवन्तः, अरण्यमध्ये नीलरङ्गेन शरीरं रञ्जयित्वा लग्नं भूत्वा ते भ्रमणं कृतवन्तः, तस्मिन् समये अपि अस्माकं देशे एक अत्यन्त चमत्कार सभ्यता सम्पन्न एक महान् संस्कृतेः आविर्भावम् अभवत्। अस्माकं पूर्वजः कृणन्तो विश्वमार्यम् अर्थात् समग्रे विश्वे ज्ञानालोक वितरणं करिष्याम इति सगर्वेण उक्तवन्तः, वयं तेषाम् उत्तरदायतः। कला, साहित्य, विज्ञान, दर्शन, खगोलविद्या, ज्योतिर्विद्या, चिकित्साविद्या, युद्धशास्त्र, अर्थनीति, अध्यात्मनीति, समस्त ज्ञानानां भण्डार अस्माकं संस्कृतवाङ्मये अस्ति। अतः सर्वाधिक प्राचीनराष्ट्र, सर्वाधिक गौरवपूर्ण राष्ट्रस्य उत्तराधिकारी रूपेण अस्माकं भारतवर्षस्य सर्वे नागरिकाः स्पर्धिता भवन्तु। भारतस्य प्राण किम्? भारतस्य प्राण भवति अस्माकं संस्कृति। अस्माकं संस्कृति संस्कृताश्रयी। वेदोपनिषदि सकल ग्रन्थाः, पुराणादि समस्त वाङ्मयः संस्कृतेन रचितवन्तः अस्माकं पूर्वजाः। अतः संस्कृतं विना भारतस्य कल्पना वयं कर्तुं न पारयाम। परन्तु यदि सामान्य चिन्तां करिष्यामः वयं जानीमः कि सर्वकार राष्ट्रनिमित्तम् आवश्यकं, परन्तु राष्ट्रगठननिमित्तम् अपरिहार्यं न भवति। अस्माकं यदा वयं वैदेशिकशासनादिन आसम् तस्मिन् समये अपि एक राष्ट्ररूपेण वयं स्थितवन्तः। अस्माकं राष्ट्रस्य आधार किम्? एक भूखण्ड एक जनसमष्टि, भूखण्डेन सह जनानां सम्पर्क, यत् भवति अस्माकं संस्कृति। अतिप्राचीनकालात् अस्माकं भारतमातुः सह सम्पर्क निर्धारितम् अस्ति, तद् भवति माता भूमिः पुत्रं प्रदेव्या। भगवान् श्रीरामचन्द्रेण उक्तम् अपि स्वर्णमयी लङ्का न मयि लक्ष्मण रोचते जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। भगवत्पाद आद्य शङ्कराचार्येण उक्तं प्रातः स्मरामि सुभदां वरदां वरेण्यं सिन्धूर्मि धौतचरणं सुधियां शरण्यं। स्वामी विवेकानन्द कथयति भारत मातः साक्षात् जीवन्त जागृत राष्ट्रदेवता, सा इदानीं पशुबलि न इच्छति, सा नरबलि इच्छति, साक्षात् जीवनदानं कर्तव्यं। तथैव अस्माकं बङ्किमचन्द्रमहोदयेन गीतवान् तस्य वन्दे मातरं कवितायां, त्वं हि दुर्गा दशप्रहरणधारिणी कमला कमलदलविहारिणी वाणी विद्यादायिनी नमामि त्वां नमामि कमलाम् अमलाम् अतुलां मातरं वन्दे मातरम्। संस्कृतभाषा न केवल प्राचीनभाषा, आधुनिकयुगस्य अपि सन्देशवाहकः। यथा हिमाद्री प्राचीनं भूत्वापि नित्यनवीनं वृद्धा न भवति, तथैव सर्वाधिकप्राचीनभाषा भूत्वापि सा इदानीं हिमाद्रिवत् अनन्ततारुण्यस्य अक्षय तेजसा विद्यमानमस्ति। आगामिनि दिने अपि संस्कृतभाषा समग्रविश्वास्य कल्याणसाधनं करिष्यति। संस्कृतभाषा इदानीम् अस्माकं युग इदानीं युग भवति विज्ञानभित्तिकयुग, विज्ञानं विना कोऽपि चिन्ता न कर्तुं पारयति। संस्कृतभाषा सर्वाधिकविज्ञानसम्मता भाषा, लेखनानुसारम् उच्चारणं पुनः सङ्गणकनिमित्तं सर्वाधिकयोग्यभाषा इति वैज्ञानिकाः प्रमाणितवन्तः। अन्तरिक्षविज्ञाने केवल संस्कृतभाषा अविकलरूपेण सङ्केत प्रापयति, अन्या भाषा भग्ना भवन्ति, विकृता भवन्ति। अतः समग्रविश्वस्य भविष्यत् भवति संस्कृतभाषा, मानवसमाजस्य भविष्यत् संस्कृते निहितम्। अतः अस्माकम् IIT आइजर नाइजर आदि विज्ञानभित्तिकसंस्थाः विश्वस्तरीयसंस्थाः इदानीं विज्ञानभारती सह मिलित्वा संस्कृतविषयकगवेषणम् आरब्धवन्तः सन्ति।
सत्यम्। अस्मिन्नेव क्रमे अयं प्रश्नः, राजनीतिकसंसारे व्यस्तः सन् संस्कृताभ्यासाय संस्कृतप्रेमणे वा कथम् इदानीम् आत्मानं व्यापारयन्ति भवन्तः?
वस्तुतः राजनीतिकव्यस्तता कारणतः संस्कृत अध्ययन अथवा संस्कृत विषय के चर्चा कर्तुं मम पार्श्वे समयस्य घोर अभाव अस्ति, परन्तु अस्माकं कार्य वयं संस्कृतायन कर्तुं पारयाम। अतः प्रतिदिन शतसहस्र जनानां कृते वयं मिलामः, तेषां सह तेन सह वार्तालापं कुर्मः, तेषां सकल समस्यानां समाधान निमित्तं संस्कृत साहित्य भण्डारतः वयं विविध निर्णयं कुर्मः। अतः अस्माकं रामायणे महाभारते बहुविध मार्गदर्शक प्रसङ्गाः सन्ति, पुनः संस्कृतसम्भाषण भवतु अथवा संस्कृतविश्वविद्यालये भवतु, संस्कृतपण्डितानां सह चर्चा आलोचना यदा कदा मिलति। अस्माकं व्यस्तजीवन भूत्वापि वयं प्रचेष्टां कुर्मः। पुनः अस्माकं राजनेतारः कृते अहम् अपि कथयामि कि संस्कृत अस्माकं प्रेरणाय उत्सव, अस्माकं भाषणे भवतु चर्चायां भवतु जीवने अपि भवतु, वयं संस्कृतवाङ्मयतः बहुविधप्रेरणाप्रसङ्गं नीत्वा कार्यं कर्तुं पारयामः। एकदा अहं स्मरामि, एकदा वर्षत्रयात् पूर्वम् अस्माकं माननीयवर प्रधानमन्त्री नरेन्द्रमोदी महोदयानां परीक्षा पे चर्चा कार्यक्रमे अहम् उपविष्टवान्। एक विद्यार्थी बालिका पृष्टवती, भो महोदयः, भवान् ईदृशी परिश्रमं कुर्वन्ति, किमर्थं क्लान्तं न भवति? नरेन्द्रमोदी महोदयेन तत्कालम् उत्तरं दत्तवान्, किमर्थम् 135 crore जनाः मम आत्मनः भवन्ति, अतः तेषां कृते यदा अहं परिश्रमं करोमि अहं क्लान्तं न भवामि, ते सर्वे मम परिवारः। तथैव वसुधैव कुटुम्बकम् इति भवति अस्माकम् आदर्श, अस्माकं वैदिकवाङ्मये ते कथयन्ति ईशावास्यमिदं सर्वं यत्किञ्चं जगत्यां जगत् तेन त्यक्तेन वञ्जितमागृदकश्युषितम्। अर्थात् समग्रविश्वस्य एकत्वं, मानवस्य दिव्यता, अस्माकं संस्कृतवाङ्मयस्य सिद्धान्तद्वयं। यदि समग्रविश्व आत्मनः स्वरूप इति वयं चिन्तयामः तर्हि कार्ये क्लान्तिः न आगमिष्यति। अतः संस्कृतवाङ्मये अस्माकं समग्र मूल्यबोधानां भण्डार भवति. एक राष्ट्र निर्माण निमित्तं आदर्श नागरिकस्य आवश्यकता भवति. अतः नागरिका भवन्ति एक राष्ट्रस्य स्तम्भस्वरूपा. उत्तम नागरिक निर्माणं न कृत्वा एक शक्ति सम्पन्न राष्ट्र निर्माणं भवितुं न पारयति. संस्कृत वाङ्मये तादृश महत्वपूर्ण विषयानां भण्डारं भवति.
भवन्तः स्वकीयम् अमूल्यमपि स्वकीयं नैजं समयं कल्पितवन्तः. एतदर्थं धन्यता वचांसि आवश्यक्रिय.
नमस्कार.
मन्येऽहं यत् अनेन संवादेन भवन्तः सर्वे निश्चयमेव लाभान्वितं भविष्यन्ति. अस्तु, अधुना कार्यक्रमस्य अग्रे बालवल्लरी प्रभागे बालानां सुखबोधाय आत्मानुरञ्जनाय च पुरुषोत्तम शर्मा प्रस्तौति एकां रुचिकरां कथाम्.
बालाः नमो नमः, आगच्छन्तु अद्य परहितं परोपकारः इति कथां शृण्मः. पुरा एकस्मिन् ग्रामे एकः वटवृक्षः आसीत्. तस्य छायायां बहवः पशवः पक्षिणः बालकाः च विश्रान्तिं प्राप्नुवन्ति स्म. एकदा ग्रामे कश्चित् धनाढ्यः पुरुषः स्वगृहस्य शोभायै वृक्षं कर्तितुम् अचिन्तयत्. सः काष्ठकारम् आहूतवान्, एषः वृक्षः मम भूमौ वर्तते, अतोऽहम् एनं कर्तुम् इच्छामि. काष्ठकारः शस्त्रं गृहीत्वा वृक्षं छित्तुं प्रवृत्तः. तदा ग्रामस्य बालकाः समागत्य उक्तवन्तः, भवता यदि वृक्षः छिद्यते तर्हि अस्य छायायां वयं क्रीडितुं न शक्नुमः. अनेन वृक्षेण अस्माकं जीवनं सुखमयं भवति. पशवः अपि जलदृष्ट्या वृक्षं रक्षितुम् आगतवन्तः. वटवृक्षः अपि मनसा प्रार्थयत्, हे मानव, मम छायायाः पात्राणां फलानां च लाभेन बहवः जीवाः सुखं लभन्ते. यदि मां छेत्तुम् इच्छसि तर्हि अहं मौनं गमिष्यामि, किन्तु एतेषां सर्वेषां दुःखं कथं सहिष्ये. एतत् श्रुत्वा धनाढ्यः विचारं कृतवान्, सत्यं वयं लोभात् स्वहितमेव चिन्तयामः, किन्तु परहितं विस्मरामः. ततः सः वृक्षं न छित्त्वा तत्रैव रोपणकार्यं कृत्वा वृक्षस्य रक्षणं कृतवान्. बालकाः हृष्टाः अभवन्, पशवः प्रसन्नाः जाताः, पक्षिणः च कूजनम् आरब्धवन्तः, वृक्षं परिभ्रम्य आनन्दं च सूचितवन्तः. अनया कथया ज्ञायते यत् परहितं परमार्थं मन्यते. यः वृक्षवत् परोपकाराय जीवति सः एव लोके पूज्यते. धन्यवादाः.
ज्ञानवर्धिनी एषा कथा. प्रियाः श्रोतृवृन्दाः, अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतमिति. यस्मिन् प्रभागे अस्माकं सहयोगी ललितमोहन तिवारी इत्यनेन प्रस्तूयते ऐक्यभावयुतासु भाषासु नानाविध वाक्यानि.
प्रथमं वाक्यम् अस्ति, भारतस्य तृतीयः उपराष्ट्रपतिः चतुर्थः राष्ट्रपतिः वी गिरी आसीत्. भारत के तीसरे उपराष्ट्रपति तथा चौथे राष्ट्रपति वी गिरी थे. ओडिया भाषा में, भारत तृतीय उपराष्ट्रपति एवं चतुर्थ राष्ट्रपति वी गिरी थिले. द्वितीयं वाक्यम् अस्ति, तस्य जन्म उड़ीसा राज्यस्य ब्रह्मपुर नगरे अभवत्. उनका जन्म उड़ीसा राज्य के ब्रह्मपुर नगर में हुआ था. ओडिया भाषा में, ताकर जन्म उड़ीसा राज्य ब्रह्मपुर नगर रे होई थिला. तृतीयं वाक्यम् अस्ति, सः भारत रत्नेन अपि सम्मानितः. उनको भारत रत्न से भी सम्मानित किया गया. ओडिया भाषा में, ताकु भारत रत्न द्वारा सम्मानित मध्यकरा जाई थिला. चतुर्थम वाक्यम अस्ति, सह नैकेषु आंदोलनेषु भागम अभजत. उन्होंने कई आंदोलनों में भाग लिया. ओडिया भाषा में, से बहुत आंदोलन रे भाग नहीं थिले.
सम्यक, भवते साधुवादाः. प्रियाः श्रोतारः, आगता अस्ति गमनवेला अधुना, किन्तु आगामि सप्ताहे पुनर्मेलिष्यामः इति अस्ति मे वचनम्. तावत्पर्यन्तं भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियाम् अस्मभ्यं प्रेषितुं शक्नुवन्ति. अस्माकम् ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति. नमो नमः.